अगोर्षि सङ्कर्षणमूर्ति स्वरूपो यो सावादित्यः परमपुरुषः सलेशर्त्रोदेवता अग्निकृतशरमायामिष्टिकायाक्षपरित्रियजपेमिनियोगः सकलस्य रुद्राध्यायस्य श्रीरुद्रोदेवता एका गायत्री छन्दः तिस्रोऽनुष्टुभस्तिस्रःपङ्क्तयः सप्तानुष्टुभो द्वे जगत्यौ परमेष्टी ऋषिः अर्घना विष्णुसजोषसेत्येकादशानामनुवाकाना अग्निः काण्ड ऋषिः पाद्या गायत्री आग्ना वैष्णवे शिष्टयजुः वाजादयोन्नादिविशेषा देवताः महाव्याच्छन्दः नमः शम्भवेति बीजम् मयो भवेति शक्तिः नमः शङ्करायेति बीजम् वयस्करायेति शक्तिः नमः शिवायेति बीजम् शिवतरायेति शक्तिः ओङ्कारो बीजम् माया शक्तिः ब्रह्मा बीजम् सुषुम्ना शक्तिः नम इषुकृद्भ्यो धन्वकृद्भ्य इति कीलकम् श्रीभवाने शङ्कर महारुद्रदेवता प्रीत्यर्थे जपे योगः मतादिशकसि शतविश्वे देवाः सूक्तवाच पृथिवीमातरमावाहिदसि मधुमयिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासकसि शुरुषेण्याहम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरो नु वदन्तु ॐ शान्ति शान्ति शान्तिः ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रभञ्जव उतो दैषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवम् बभूव ते धनुः शिवाशरव्या यातभतया नो रुद्रमृणया या ते रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिजाकशी याभिसङ्गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरिद्रताम् गुरुवाहिगोऽसि पुरुषम् जगत शिवे तव च सा त्वागिरिशाच्छा वदामसि यथा दस्रभमिजगद यक्ष्मग सुमना असत अभ्यवोचद विभक्ता प्रथमो दैव्योऽभिषक अहीतश्च सर्वाहन्यम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुस्व मङ्गलः ये क्षेमाद्रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैषाग्नेर्णैवहे असौ यो भसरपतिनीय ग्रीवो विलोहितः उदयनम् गोपादृशम् नदृशम् नुदभार्यः उदयनम् विश्वा भूतानि सदृष्टो मृणयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोहन्तेभ्यो करन्नवः रमुञ्च धन्वनस्त्वमुभयोरात्मियोज्वा याश्च ते हस्त इषवः पराता भगवो वपा ముఖా శివోన సుమనాభవ విర్జంధనుక్త పరతి భోమి శల్యో బాణవాగ్భుదా అమేషన్నస్యేషవ ఆపునస్య నిషంగతిః యాతే హేతిరమేడుష్టమహస్తే బభూవ తే ధనుః తయాస్మాద్విశ్వతస్త్వమ యక్ష్మయా పరిభుజా నమస్తే అస్త్వాయుధాయా నాతవాయ ధృష్టవే పునాభ్యాముతతే నమో బాహుభ్రాంతవధన్వనే పరితే ధన్వనో హేతిరస్మాంగ్రణక్తు విశ్వతః అథోయలి శుధిస్తవారే అస్మన్నిధే హితాం నమో హిరణ్యవాహవే సేనాన్వే దిశాం చ పతయే నమో నమః వృక్షేభ్యో హరికేశేభ్యః పశూనాం సవరయే నమో నమః స్వస్తిన్యరాయ కృషీమతే పథీనాం సవరయే నమో నమో బభ్లుషాయ విభ్యాదినేన్నానాం పతయే నమో నమో హరికేశాయ పడీరే పుష్పానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తథా విధేక్షే ప్రాణాం పతయే నమో నమః సూతాయ అంగ్యాయ వరాణాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయ ఔషధీనాం పతయే నమో నమ ఉచ్చైర్ఘోషాయ నిర్ణయతే పక్షీణాం పతయే నమో నమ కృత్స్నవీతాయ ధావతే సత్వనాం పతయే నమః నమః సహమానాయ నిర్వ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమః కకుభాయ నిషంగిణే స్థేనానాం పతయే నమో నమో నిషంగిణ ఇషధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేర మే పరిచరాయ అరణ్యానాం పతయే నమో నమస్సుఖాదిభ్యో జిఘాగో సద్భ్యో ముష్ఠతాం పతయే నమో నమో శ్రీమద్భ్యో నక్తంచరద్రప్రకృందానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషుమద్భ్యో ధనుభావిభ్యశ్చ వో నమో నమ ఆతన్మానేభ్యప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయక్షద్భ్యో విసృజద్భ్యశ్చ వో నమో నమోస్యద్భ్యో విద్యద్భ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో ధావద్భ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యో అశ్వపతిభ్యశ్చ వో నమః ఆవ్యాధినేభ్యో విభ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్తృగహతీభ్యశ్చ వో నమో నమో కృత్సేభ్యో కృత్సపతిభ్యశ్చ వో నమో నమో ప్రాణేభ్యో ప్రాతపతిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యుల్లకేభ్యశ్చ వో నమో నమో రతిభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమ సేనాభ్యసేనానిభ్యశ్చ వో నమో నమ శత్రుభ్య సంగ్రహీతృభ్యశ్చ వో నమో నమ సక్షభ్యో రథకారేభ్యశ్చ వో నమో నమ కులాలేభ్య కరమాణేభ్యశ్చ వో నమో నమ పుణ్యిష్టేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయుభ్యశ్వరిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च सिद्धिकण्ठाय च नमः कपर्दिने चौव्यर्थकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविभृष्टाय च नमो मेरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाधिराय च नमः शीघ्रियाय च शीभ्याय च नमः पूर्ण्याय चावसुमन्याय च नमः स्रोतस्याय च वीर्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्धिराय च नमः सोऽध्याय च प्रतिसर्याय च नमो याङ्गाय च क्षेम्याय च नमः उर्भर्याय च कल्याय च नमः श्रोत्याय चावसान्याय च नमो वन्याय च कक्षाय च नमः शर्वाय य च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो गर्मिणे च वरूचिने च नमो दिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रलिताय च नमो विषङ्गिणे जेषुधिमते च नमः स्थीक्ष्णेशवे च युगिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च वक्ष्याय च नमः काट्याय च वीर्याय च नमः सूत्याय च सरस्याय च नमो माद्याय य च वैषन्दाय च नमः कूप्याय च भट्याय च नमो वर्षाय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तव्याय च नमो वाद्याय च रेश्वियाय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च वृणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षे ब्रोहरिकेशे ब्रो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्याय च कूल्याय च नमः आर्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आकार्याय च भाद्याय च नमः षष्ट्याय च प्रेम्याय च नमः सिकत्याय च प्रभाय्याय च नम एण्याय च प्रपत्याय च नमर्तिकशिलाय च क्षयणाय च नमः कपर्दिने च कुलस्तये च नमो गोष्ठ्याय च वीर्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो ओढभय्याय च निवेश्याय च नमः आगसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो ोव्याय च लव्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशत्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आक्षिदते च प्रक्षिदते च नमो वाक्यभ्यो देवानां हृदयेभ्यो नमो विक्षीणगेभ्यो नमो विचन्वक्तेभ्यो नमः हृदयेभ्यो नमः आमि भक्तेभ्यः अन्वसस्पते दरिद्रन्नीलोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभिर्मा रोमो येषाम् किञ्चनापमत याते रुद्रशिवा तनो शिवा विश्वाहवेशजी शिवा रुद्रस्य वेषजी दया नो वृणजीवसे निम ग्रुत्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यदा दशमसद्विपदे चतुष्पदे विश्वम् पुष्टं ग्रामे अस्मिन् नरातुरम् मृडानो रुद्रोतनो मयस्मृति क्षयद्वीराय नमसा विधेमते यच्छञ्चयोश्चमनुरायजे पिता तदश्या भगवरुद्रप्रणीतौ मानो महान्तमुतमानो अरभगम् मान उच्छन्तमुतमान उक्षितौ मानो रवेद्विवरम् मोत मातरम् क्रियामानस्तनुवो रुग्रवीषः मानस्थोकेतम ये मान आयुषि मानो गोषु मानो अश्वेषुरीषः वीरान्मानो रुद्रभावितो वधीर्हविष्मन्तो नमसा विधेमते आरात्रे गोघ्र उत पूर्षघ्ने क्षयद्वीराय सुन्नमस्वेपे अस्तु रक्षा च नो अधि च देव गुरुयदा च न शर्म यच्छद्विवरः सुहिश्रुतम् गर्धसधैयुवानम् मृगम् न भीममुपहत्नमुग्रम् युक्ते रुद्रस्तवानो अन्यन्ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिक्लेशस्य दुर्मतिरघायो अस्थिरा भगवद्व्यस्तनुष्वमीवस्तोकायतनयाय मृणया मीडुष्टमशिवतम शिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय मृत्युम् वसाधाचर पिनाकम् विभ्रदागहि विगिरिदविलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगहेतयोऽन्यमस्मन्निव पन्तुदाः सहस्राणि सहस्रधा बाहुवोस्तमहेतयः दासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्राधिभूम्याशाको सहस्रयोजने वधन्वानि धन्वसि अस्मिन् महत्यर्णवेऽन्तरिक्षे भवाभि नीलग्रीवाशिधिघण्टा सर्वा अदहाक्षमाचराः नीलग्रीवाशिधिघण्टादिवक रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः धिपतयो विशिकासर्कपरदिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम्बधिरक्षय ऐलभृदा यौयुधः ये तीर्थानि प्रचरन्ति सृगावन्तो निषङ्गिणः य एतावन्तश्च भूयागोसश्च दिशो रुद्राविदस्थिरे एषागो सहस्रयोजने वदन्वायुधन्वसि नमो रुद्रेभ्यो ये पृथिव्यायेऽन्तरिक्षे ये दिव्येषामन्मौ वातो वैषविषभस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृणयन्तु ते यन्विष्मो यश्च नो किलम् भोजम् वे ददामि ॐ त्र्यम्बकै यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिह वन्दनात् मृत्योर्मुक्षीयमामृतात् ॐ अग्रा विष्णो सजोष सेवावर्धन्तु वाङ्गिरः युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसिदिश्च मे दीतिश्च मे क्रतुश्च मे स्वरश्च मे शोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ज्ञानश्च मे शुश्च मे चित्तञ्च महाभीतञ्च मे वाक्च मे म मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च महोजश्च मे सहश्च महायुश्च मे जरा च महात्मा च मे धनुश्च मे चर्म च मे वरम च मेऽङ्गानि च मे स्वानि च मे परोदाश च मे शरीराणि च मे जयेष्ट्यञ्च महाधिपत्यञ्च मे मन्यश्च मे वामश्च मे मश्च मे वश्च मे सेवा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राकुया च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगच्च मे धनञ्च मे वशश्च मे कृशश्च मे क्रीडा च मे मोदश्च मे ध्यातञ्च मे जनिष्यमाणञ्च मे सूक्तञ्च मे सुकृतञ्च मे वित्तञ्च मे वेद्यञ्च मे भूतञ्च मे भविष्यञ्च मे सुखञ्च मे सुपतञ्च मरुद्धञ्च मरुद्धिश्च मे क्लुप्तञ्च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे षञ्च मे वयश्च मे प्रियञ्च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणञ्च मे यन्ता च मे धरता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सूश्च मे प्रसूश्च मे सीरञ्च मे लयश्च मरुतञ्च मे मृतञ्च मे यक्ष्मञ्च मे रामयच्च मे जीवादुश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मे भयञ्च मे सुखञ्च मे शयनञ्च मे सूषा च मे सुधिरञ्च मे ऊर्च मे सूदृगा च मे पयश्च मे रसश्च मे घृतञ्च मे मधुच मे सकृदिश्च मे समीधिश्च मे कृशिश्च मे वृष्टिश्च मे चैत्रञ्च महोद्भिव्यञ्च मे रजिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णञ्च मे पूर्णधरञ्च मे क्षितिश्च मे भूयमाश्च मे क्षुच्च मे प्रीहयश्च मे यमाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गमश्च मे ढवश्च मे श्यामाकाश्च मे दीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यञ्च मे यश्च मे सीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मे अग्निश्च महापश्च मे नीरुदश्च महोषधयश्च मे पृष्ठपक्षञ्च मे पृष्ठपक्षञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तञ्च मे वित्तश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे रथश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे भूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे विष्णौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मे अन्तरिक्षञ्च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अदशिश्च मे रश्मिश्च मे आभ्यश्च मे निभतिश्च म उपागशिश्च मे प्रयामश्च म ऐन्द्रवायवश्च मे मयीन्द्रावरुणश्च महाश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दीर्णवाग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहाश्च मे मे वैश्व देवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे वाग्भीरवतश्च मे हारियोधनश्च मे ऋतुवश्च मे बर्हिश्च मे वेदिश्च मे जिष्मियाश्च मे सुतश्च मे च वसाश्च मे ग्रामाणश्च मे स्वरवश्च मौपहवाश्च मे धिषवने च मे द्रोणकलशश्च मे वायव्यानि च मे पूर्धवृच्च महागमनीयश्च महाग्निमित्रश्च मे हविर्धानञ्च मे गृहाश्च मे सदश्च मे पुरोणाशाश्च मे पचताश्च मेवभृतश्च मे स्वराकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेष्वभेदश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे यौश्च मे शक्वरीरङ्गुलयोगिषश्च मे यज्ञेन कलपन्तामृक्ष मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोरवृष्ट्या ृदन्तरे च मे यत्नेन कल्पेता गर्भाश्च मे वत्साश्च मे द्रविश्च मे द्रवीश्च मे नित्यवाच्च मे नित्यौहीश्च मे पञ्चाभिश्च मे पञ्चाभी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौही च मे पष्ठवाच्च मे पष्ठौही च मुक्षा च मे वशा च मृषभश्च मे देहश्च मे धनुवाच्च मे धेनुश्च महायुर् यज्ञेन कल्पता प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्रश्रोत्रै यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एकाश्च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च मलेकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च मलेकविकषतिश्च मे त्रयोविकषतिश्च मे पञ्चविकषतिश्च मे सप्तविकषतिश्च मे नव विकषतिश्च मलेकत्रिगच्च मे त्रयस्त्रिगच्च मे चतस्रश्च मे त्रौ च मे द्वादश च मे षोडश च मे विकषतिश्च मे विकषतिश्च मे त्वाविकषतिश्च मे त्वात्रिगच्च मे षट्त्रिगच्च मे चत्वारिगच्च मे चतुश्चत्वारिगच्च मे त्वाचत्वारिगच्च मे माजश्च प्रसवश्च द्विजश्च क्रतश्च सुवश्च मूर्धा चौव्यश्नियश्चान्त्याजनश्चान्तश्च मौवनश्च भुवनश्च अधिपतिश्च ॐ पिडाये बहूर्मनर्यज्ञनेर्बृहस्पतिर्कामधानिषकसि षद्विश्वे देवासुभवा च पृथिवीमातरमाहिनसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुमनिष्यामि मधुमति देवेभ्यो वाच मध्यासकसि शरुषेण्यामनुष्येभ्यस्तम्बा देवामन्त्रशोभायै पितरो नु वदन्तु ॐ